ओम नमो भगवते वासुदेवाय। अथ षडशीतितमोऽध्यायः। राजोवाच ब्रह्मन् वेदितुमिच्छामः स्वसारं रामकृष्णयोः। यथोपये मे विजयो याममासीत् पितामही। श्रीशुक उवाच अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः गतः प्रभासमशृणोन् मातुलेयीं स आत्मनः। दुर्योधनाय रामस्तां दास्यतीति न चापरे। तल्लिप्सुः सयतिर्भूत्वा त्रिदण्डी द्वारकामगात्। तत्र वै वार्षिकान् मासानवात्सीत् स्वार्थसाधकः। पौरैः सभाजितो भीक्ष्णम् रामेणा जानता च सः। एकदा गृहमानीय आतिथ्येन निमन्त्र्यतम्। श्रद्धयोपहरितं भैक्ष्यं बलेन बुभुजे किल। सोपश्यत्तत्र महतीं कन्यां वीरमनोहराम्। प्रीत्युत्फुल्ले क्षणस्तस्यां भावक्षुब्धं मनोदधे। शापितं चकमे वीक्ष्य नारीणां हृदयङ्गमम्। हसन्ती व्रीडितापाङ्गी तन्यस्त हृदये क्षणा। तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुनः। न लेभे सम्भ्रमच्चित्तः कामेनाति बलीयसा। महत्यां देवयात्रायां रथस्थां दुर्गनिर्गताम्। जहारानुमतः पित्रो कृष्णस्य च महारथः। रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान्। विद्राव्यक्रोशतां स्वानां स्वभागं मृगराडिव। तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः। गृहीतपादः कृष्णेन सुहृद्भिश्चान्वशाम्यत। प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः। महाधनोपस्करेभ रथाश्वनरयोषितः। श्रीशुक उवाच कृष्णस्यासीद्विजश्रेष्ठः श्रुतदेव इति श्रुतः। कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः। स उवास विदेहेषु मिथिलायां गृहाश्रमी। अनिहया गताहार्य निर्वर्तित निजक्रियः। यात्रामात्रं त्वहरहर्दैवादुपनमत्युत। नाधिकं तावता तुष्टः क्रियाश्चक्रे यथोचिताः। तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः। मैथिलो निरहं मान उभावप्यच्युतप्रियौ। तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम्। आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभुः। नारदो वामदेवोऽत्रिः कृष्णो रामोऽसि तोरुणिः। अहं बृहस्पतिः कण्वो मैत्रेयश्च वनादयः। तत्र तत्र तमायान्तं पौरा जानपदा नृप। उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम्। आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य पाञ्चालकुन्तिमधुकेकय कोसलार्णाः। अन्ये च तन्मुखसरोजमुदारहास। स्निग्धे क्षणम् नृपपपुर्दृशिभिर्नृनार्यः। तेभ्यः स्ववीक्षणविनष्टतमिश्रदृग्भ्यः क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन्। शृण्वन् दिगन्तधवलं स्वयशोऽशुभग्नं गीतं सुरैर्नृभिरगाच्छन् कैर्विदेहान्। तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप। अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः। दृष्ट्वा तौ तमश्लोकं प्रीत्युत्फुल्लाननाशयाः। कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वांस्तथा मुनीन्। स्वानुग्रहाय सम्प्राप्तं मन्वानौतं जगद्गुरुम्। मैथिलश्रुतदेवश्च पादयोपेततुः प्रभोः। न्यमन्त्रयेतां दासारः मातिथ्येन सह द्विजैः। मैथिलश्रुतदेवश्च युगपत्संहताञ्जलि। भगवांस्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया। उभयोराविशद्गेहमुभाभ्यां तदलक्षितः। श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान्। आनीते श्वासनाग्र्येषु सुखासीनान् महामनाः। प्रवृद्धभक्त्या उद्धर्ष हृदयास्राविलेक्षणः। नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः। सकुटुम्बो वहन्मूर्ध्ना पूजयाञ्चक्र ईश्वरान्। गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषैः। वाचा मधुरया प्रीणन्निदमहान्नतर्पितान्। पादावङ्कगतौ विष्णोः संस्पृशन् शनकैर्मुदा। राजोवाच भवान् हि सर्वभूतानामात्मा साक्षीत् स्वदृग् विभो। अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनङ्गतः। स्ववचस्तद्रितं कर्तुम् अस्मद्रिग्गोचरो भवान् यदाथैकान्तभक्तान् मे नानन्तः श्रीरजः प्रियः को नु त्वच्चरणाम्भोजमेवं विसृजेत् पुमान् निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः योऽवतीर्य यदोर्वंशे नृणां संसरतामिह यशोवितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् नमस्तुभ्यं भगवते कृष्णाया कुण्ठमेधसे नारायणाय ऋषये सुशान्तं तपयीयुषे दिनानि कतिचिद्भूमन् गृहान्नो निवसद्विजयीः समेतः पादरजसा पुनीहिदं निमेकुलम् इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः उवास कुर्वन् कल्याणं मिथिला नरयोषिताम् श्रुतदेवोच्युतं प्राप्तं स्वगृहाञ्जनको यथा नत्वा मुनीन् सुसंमृष्टो धुन्वन् वासो ननर्तः तृणपीठभृशीश्वेतानानि तेषूपवेश्य सः स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्यो वनिजे मुदा तदम्भसा महाभाग आत्मानं सगृहान् वयम् स्नापयाञ्चक्र उद्धर्षो लब्ध सर्वमनोरथः फलार्हणो क्षीरशिवामृताम्बुभिर्मृदासुरभ्या तुलसी कुशाम्बुजैः आराधयामास यथोपपन्नया सपर्ययात् सत्त्वविवर्धनान्धसा सतर्कयामास कुतो ममान्वभूत् गृहान्धकूपे पतितस्य सङ्गमः यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेतभूसुरैः सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः सभार्य स्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः श्रुतदेव उवाच नाद्यनो दर्शनं प्राप्तः परं परमपूरुषः यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो यात्मसद्दया यथा शयानः पुरुषो मनसैवात्ममायया सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते शृण्वतां गदतां शश्वदर्चतां त्वाभिवन्दतां नृणां संवदतामन्तर्हृदि भास्यमलात्मनां हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनां नमोऽस्तु तेऽध्यात्मविदां परात्मने अनात्मने स्वात्मविभक्तमृत्यवे सकारणाकारणलिङ्गमीयुषे स्वमायया संवृतरुद्धदृष्टये सत्त्वं साधि स्वभृत्यान्नः किं देव करवामहे एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः श्रीशुक उवाच तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्थिहा गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाचः श्रीभगवानुवाच ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विध्यमून्मुनीन् सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः देवाक्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह तपसा विद्यया तुष्ट्या किमु मत्कलया युतः न ब्राह्मणान् मे दयितं रूपमेतच्चतुर्भुजम् सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् दुष्प्रज्ञा अविदित्वैव मवजानन्त्यसूयवः गुरुं मां विप्रमात्मानमर्चादा विद्यदृष्टयः चराचरमिदं विश्वं भावाये चास्य हेतवः मद्रूपाणीति चेतस्या धत्ते विप्रो मदीक्षया तस्माद् ब्रह्म ऋषीनेतान् ब्रह्मन्मच्छ्रद्धयार्चय एवं चेदर्चितोऽस्म्यर्था नान्यथा भूरिभूतिभिः श्रीशुक उवाच स इत्थं प्रभुणादिष्टः सः कृष्णान् द्विजोत्तमान् आराध्यैकात्मभावेन मैथिलश्चापसद्गतिम् एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् उषित्वा दिश्यसन्मार्गं पुनर्द्वारवतीमगात् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।